जाम चंद्राम हिरण्मयीम लक्ष्मीम जातवेदो मावह तामावह जातवेदो लक्ष्मी अश्वपूर्वां रथमध्यां हस्तिनाद प्रमोदिनीं श्रियं देवीमुपह्वये श्रीर्मादेवी जुषतां कांसोस्मितां हिरण्यप्राकारा ज्वलन्तीं तृप्तां तर्पयन्तीं पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियं चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके जुष्टामुदारां तां पद्मिनीमीं शरणं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे आदित्यवर्णे तपसोधिजातो वन बिल्वः तस्य फलानि तपसानुदन्तु यान्तरायाश्च बाह्या लक्ष्मीः उपेतु मां देवसकः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे क्षुत्पिपासामलां ज्येष्ठा अलक्ष्मीं नाशयाम्यहम् अभूतिमसमृद्ध सर्वां निर्णुद मे गृहात् गन्धद्वारां दुराधर्षां नित्यपुष्टां करिषिणीं ईश्वरीं सर्वभूतां सह काममाकूतिं वाचः सत्यमशीमहि पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः कर्तमेन प्रजा सृजन्तु स्निग्धानि चिक्लीतवसमे गृहे निच देवीं मातरं श्रियं वासय मे कुले चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो मावह आर्द्रां यक्करिणीं यष्टिम् सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो मावह तामावह जातवेदो लक्ष्मी पगामिनी यस्यां हिरण्यं प्रभूतं गावो दास्योष्वान् विन्देहं पुरुषानहं यशुचे प्रयतो भूत्वा जुहुयादाच मन्वहम् पञ्चदशर्चं च श्रीकामः सततं जपेत् पद्मानने पद्मविपत्नपत्रे पद्मप्रिये पद्मदलायताक्षी विश्वप्रिये विष्णुमनो पद्मानने पद्मऊरु पद्माक्षे पद्मसंभवे तन्मे भजसि पद्माक्षे येन सौख्यं लभाम्यहम् अश्वदायी गोदायी धनदायी महाधने धनं मे जुषतां देवी सर्वकामांश्च देहि मे पुत्र पौत्र धनं धान्यं हस्त्यश्वाश्वतरीरथम् प्रजानां भवसि माता आयुष्मन्तं करोतु मे धनमग्निर्धनम् सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः भवन्ति कृतपुण्यानां भक्त्या श्रीसूक्तजापिनां सरसिजनिलये सरोजहस्ते धवलकरां शुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे सखीं भूमिं नमाम्यच्युतवल्लभां महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् आनन्द श्रियः पुत्राश्च श्रीर्देवीर्देवतामताः ऋणरोगादिदारिद्रय पापक्षुदपमृत्यवः भयशोकमनस्तापा नश्यन् स्वमायुष्यमारोग्यम् आविधाच्छोभमानं महीयते धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ऋग्वेदोक्तं श्री संपूर्ण।